संप्रति हव्यकव्यं तथा गतिं लोक सदाशिवो यः आराधितो यश्च ददाति सर्वानामामिदानप्रियमिष्टदे।